सर्वेभ्यः राम 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 सुस्वागतम् यावत् अन्ये तत्र कक्षार्थम् आगमिष्यन्ति तावत् ध्यानश्लोकान् वदामः पुनरावर्तनमपि कर्तुं शक्यते गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो पार्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन ग्रथिताम् पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीम् भगवतीम् अष्टादशाध्यायिनीम् अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय गुरुं गणपतिम् आचार्यान् मातापितृन् सर्वान् नत्वा अद्यतनकक्षां प्रारम्भं कुर्मः प्रथमाध्याये तावत् अर्जुनस्य विषादयोगः अस्माभिः दृष्टमस्ति द्वितीयाध्यायस्य प्रारम्भकाले अपि अर्जुनस्य विषादः तत्र अनुवर्तते प्रथमश्लोके सञ्जयः धृतराष्ट्रं प्रति वदति तं तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणम् अर्जुनं प्रति मधुसूदनः वाक्यमुवाच कृष्णः पृच्छति कुतः एतादृशकष्मलम् आगतम् इति कृष्णः पृच्छति यत् अकीर्तिकरं यत् अधर्म्यं यत् असाधुसेवितं तादृशं कष्मलं कुतः आगतं कस्मात् कारणात् कस्मात् प्रदेशात् त्वयि समुपस्थितम् इति पृच्छति अपि च सः आज्ञां ददाति क्लैभ्यं मा स्म गमः एतत् न उपपद्यते अतः सर्वं क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ युद्धं कुरु इति सः वदति पुनः पौनःपुन्येन पिष्टपेशं न्यायवत् अर्जुनः पूजार्हौ तत्र ये सन्ति पूजार्हाः भीष्मद्रोणादयः ये सन्ति तान् कथं मारयामि तान् हत्वा अपि केवलं रुधिरप्रदिग्धान् भोगान् प्राप्स्ये तत् मया भुञ्जते तादृश रुधिरप्रदिग्ध भोग्यवस्तूनि नेच्छामि इति सः वदति अस्माभिः तत्र पक्षद्वयमपि श्रुतमस्ति प्रथमपक्षः तावत् गुरुं हुङ्कृत्यधिकृत्यत्वं कृत्य यो वर्तते श्वानयोनिशतं गत्वा चण्डालः कोटिजन्मसु इति गुरु आदरणीयपक्षः यदस्ति द्वितीयपक्षस्तावत् कः सम्यक् गुरुः इति प्रथमतया अन्वेषणं कर्तव्यम् कः गुरुलक्षणम् अन्वेति सः एव तमेव तत्र हुङ्कृत्यधिकृत्यत्वं कृत्य एव एतत् फलं लभ्यते केवलं गुरुत्वेन ये स्वयं आह्वयन्ति ये स्वयमेव गुरुं मन्यन्ते ये स्वयमेव गुरुं गुरुरूपेण सर्वेभ्यः उक्त्वा पूजां तत्र स्वीकुर्वन्ति न तु ते गुरवः इति सम्यक् द्वितीयपक्षे उक्तमस्ति गुरोरपि अवलिप्तस्य कार्याकार्यम् अजानतः उत्पतन्तं प्रतिपन्नस्य परित्यागो विधीयते तादृशगुरोः केवलं परित्यागः कर्तव्यः न तु पूजार्हाः ते इति तत्र द्वितीयपक्षस्य पक्षद्वयस्यापि आर्ग्युमेण्ट्स् अस्माभिः दृष्टमस्ति. अनन्तरमपि अर्जुनः वदति तत्र कतरत् गरीयः मार्गः, मार्गद्वयं वर्तते, कतरत् गरीयः इति न जानीमः, तदर्थं कर्पण्यदोषेण उपहतः अहं धर्मसम्मूढचेताः अस्मि, तदर्थं हे कृष्ण कृपया यत् श्रेयः स्यात् तत् निश्चितं ब्रूहि, निश्चयेन असन्दिग्धम् असंशयं मह्यं वद, अहं ते शिष्यः, अहं त्वयि सम्यक् प्रपन्नोऽस्मि, मां शाधि, माम् उपदिश इति सः पृच्छति. अस्माभिः दृष्टमस्ति कार्पण्यम् इत्यस्य भावः कः इति अस्माभिः दृष्टमस्ति. कृपणाः फलहेतव मानसिककार्पण्यम् यद्वर्तते, ये जनाः अक्षरम् अविदित्वा अस्मात् लोकात् प्रेति सः कृपणः, ते एव कृपणाः इति अस्माभिः दृष्टमस्ति. तादृशकार्पण्यदोषेण सम्पूरितः अस्य मनः, अर्जुनस्य मनः, अपि च धर्मसम्मूढचेताः सः वदति. अनन्तरं तादृश अवस्थायां सः अहं ते शिष्यः इति उक्त्वा तत्र शरणागतिं प्राप्नोति अस्माभिः दृष्टमस्ति. गीतायाः प्रारम्भमपि शरणागति प्रपन्नम् इति प्रारम्भं भवति, अन्ते अपि प्रपत्ति सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति अन्तिमश्लोके तत्र समाप्तिरपि भविष्यति. अपि च सः अर्जुनः तत्र एतादृशराज्यं प्राप्त्वापि तत्र तत् प्राप्यापि मम शोकं न गच्छति, तत् शोकस्य निवारणं न भवति इति उक्त्वा सः नयोत्स्य इति उक्त्वा उपविशति इति सञ्जयः धृतराष्ट्रं प्रति वदति. अस्माभिः तत्र अग्रे तत्र मार्गद्वयस्यापि चार्ट् रूपेण दृष्टमस्ति, किं किं लभ्येत इति चार्ट् रूपेण अस्माभिः दृष्टमस्ति. अनन्तरं दशमश्लोके तमुवाच हृषीकेशः प्रहसन्निव भारत सेनयोः उभयोः मध्ये विषीदन्तमिदं वचः इति तं तादृश अर्जुनं प्रति हृषीकेशः, हृषीकेशः अन्तरात्मा यः अन्तर्यामी अस्ति, हृषीकेशः हृषीकाणि इन्द्रियाण्याहुः यः अन्तर्यामी सर्वान्तर्यामी सर्वत्र वस आच्छादने इति धातोः निष्पन्नः वासुदेवः यः अस्ति, विश्वं विष्णुः यः अस्ति, तादृश हृषीकेशः अन्तर्यामी यः सर्वं भूतं भविष्यत् वर्तमानं यः जानाति, बुद्ध्यन्तरे यत् अस्माभिः चिन्त्यते, यत् अस्माभिः बहिः प्रकाश्यते, मनसा वाचा कर्मणा अस्माभिः यद्यच्चिन्त्यते उच्यते क्रियते तत्सर्वं यः जानाति, तादृश कृष्णः प्रहसन् इव सेनयोः उभयोः मध्ये वर्तमानं विषीदन्तम् अर्जुनं प्रति एतादृश वचांसि सः वदति. तत्र श्लोकः दशमश्लोकः. अपि च प्रहसन् इव इत्यस्य अतीव विशेष चमत्कारि व्याख्यानम् अस्माभिः दृष्टमस्ति, यत् अनेकैः ज्येष्ठैः श्रेष्ठैः व्याख्यान कर्तृभिः दत्तमस्ति, तदस्माभिः तत्र केचन व्याख्यानं स्वीकृत्य अस्माभिः तत्र सम्यक् तत्र अनुभोक्तमसीत् गतकक्षायाम्. इदानीम् एकादशश्लोकम् एकवारं वदामः. तत्र एकादशश्लोकमपि अस्माभिः प्रायशः उक्तमस्ति इति मन्ये, अहं श्लोकं वदामि. अग्रे अस्माभिः तत्र व्याकरणभागमपि दृष्ट्वा विशेषांशान् पश्यामः. श्रीमद्भगवद्गीतायाः प्रथमश्लोकत्वेनापि परिगण्यते अयं श्लोकः. अस्मात् श्लोकादेव भाष्यकाराः तत्र शङ्करमध्वरामानुजादयः अस्मात् श्लोकादेव स्वभाष्यरचनां प्रारम्भं कृतवन्तः. इतः पूर्वं यदासीत् तत् केवलं पीठिकाभागत्वेन स्वीक्रियते. एवं तत्र द्वितीयाध्यायस्य एकादशश्लोकं पश्यामः. अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासून गतासूंश्च नानुशोचन्ति पण्डिताः. एवम् अस्माभिः तत्र अन्वयभागमपि दृष्टमस्ति. त्वम् हे अर्जुन त्वं अशोच्यान् अन्वशोचः तत् प्रथमं वाक्यं प्रज्ञावादान् इव भाषसे द्वितीयं वाक्यं तृतीयं वाक्यं तावत् पण्डिताः गतासून् अगतासूञ्च न अनुशोचन्ति वाक्यत्रयं तत्र क्रियापदत्रयं सम्यक् वर्तते वाक्यत्रयं कर्तुं शक्यते अतीव सरलमस्ति वाक्यत्वेन अतीव सरलमस्ति तत्त्वत्वेन तत्र अतीव गाढमस्ति पश्यामः हे अर्जुन त्वम् अशोच्यान् अन्वशोचः येषु शोकः न करणीयः तान् प्रति त्वं शोकः अकरोः येषु अस्माभिः कदापि शोकः न करणीयः त्री सेण्टेन्सेस् केन् बि फार्म्ड् इन् श्लोका नम्बर् 11 वि जस्ट् सा द रीकेप् आफ् द फस्ट् 10 श्लोकास् तत्र पूर्वम् एकवारं रीकेप् कृतमस्ति इदानीम् एकादश श्लोके वर्तमानः स्मः वयं सर्वे पश्यामः हे अर्जुन त्वम् अशोच्यान् अन्वशोचः प्रथमं वाक्यं त्वं येषु शोकः न करणीयः तान् प्रति त्वं शोकम् अकरोः तत् प्रथमं वाक्यं द्वितीयं वाक्यं किं प्रज्ञावादांश्च भाषसे प्रज्ञावादः प्रज्ञावादान् इव त्वं भाषसे द्वितीयं वाक्यं यु आर् टाकिङ्ग् एस् इफ् यु आर् अ नोयर् आफ् आल् तत् द्वितीयं वाक्यं तर्ड् वाक्यं तृतीयं वाक्यं तावत् पण्डिताः जनाः कर्तृपदं पण्डिताः गतासून् अगतासून् कर्मपदं न अनुशोचन्ति न व्ययम् अनुशोचन्ति क्रियापदं त्री सेण्टेन्सस् सिम्पल् सेण्टेन्सस् पश्यामः त्वं युष्मच्छब्द दकारान्त सर्वनाम प्रथमपुरुष प्रथमाविभक्ति एकवचनं युष्मच्छब्दस्य त्वम् अशोच्यान् अन्वशोचः अशोच्यान् कर्मपदम् येषु शोकः न करणीयः शोकम् कर्तुम् योग्याः शोचितुम् योग्याः शोच्याः न शोचितुम् योग्याः अशोच्याः येषु शोकः न करणीयः दोस् हू शुड् नाट् बी मोर्न्ड् अपान् दोस् कैण्ड् आफ् पीपल् ते अशोच्याः तान् अशोच्यान् तान् प्रति अन्वशोचः यु आर् मोर्निङ्ग् देम् त्वम् अन्वशोचः अशोच्यान् द्वितीयाभक्ति बहुवचनं कर्मपदं सो द्वितीयाभक्ति अन्वशोचः वि हव् सीन् अनु इस् द उपसर्ग शुचि शोके इस् द धातु एण्ड् इट् इस् अ भ्वादिगणीयः लङ्लकार कम्स् एस् शोचत् शोचताम् अशोचत् अशोचताम् अशोचन् अशोचः अशोचतम् अशोचत सो त्वम् अशोचः त्वम् अशोच्यान् अन्वशोचः यु आर् मोर्निङ्ग् फार् दोस् पीपल् हू शुड् नाट् बि मोर्न्ड् फार् प्रथमं वाक्यम् द्वितीयं वाक्यं प्रज्ञावादान् च भाषसे प्रज्ञावादान् एस् इफ् यु आर् द मोस्ट् इण्टेलिजेण्ट् पर्सन् बुद्धिवादान् इव बुद्धिवादान् एस् इफ् यु आर् टाकिङ्ग् ग्रेट् वर्ड्स् आफ् विस्डम् तत्र वादे वादे जायते तत्त्वबोधः इति उक्तिरस्ति परं वादः तत्र प्रज्ञावादाः बुद्धिवादाः भवितव्याः यदि वितण्डावादाः भविष्यन्ति तर्हि वादे वादे तत्त्वबोधः नैव जायते तत्र केवलं कलहबोधः भवति तादृश उक्तिं स्वीकृत्य कृष्णः वदति प्रज्ञावादान् च भाषसे द्वितीयं वाक्यं प्रज्ञावादान् च भाषसे त्वं यु स्पीक् एस् इफ् यु हेव् द ग्रेटेस्ट् वर्ड्स् आफ् विस्डम् विद् यु वादान् प्रज्ञावादान् अगेन् त्वम् एव वि हेव् टु टेक् त्वम् एस् द कर्तृपदं त्वम् अशोच्यान् अन्वशोचः फस्ट् वाक्यं सेकेण्ड् वाक्यं त्वं प्रज्ञावादान् च भाषसे यु आर् टाकिङ्ग् एस् इफ् यु नो द वर्ड्स् आफ् विस्डम् त्वं भाषसे एवं मध्यमपुरुष एकवचनं लट्लकारः आत्मनेपदि भाषते भाषेते भाषन्ते भाषसे भाषेथे भाषध्वे भाषे भाषावहे भाषामे भाषव्यक्तायां वाचि धातुः तृतीयं वाक्यं तावत् पण्डिताः प्रथमपुरुषम् अकारान्तः पुल्लिङ्गप्रथमाविभक्ति बहुवचनं पण्डिताः तत्र त्वमपि न अहमपि न तत्र अन्यः शेषे प्रथमः पण्डिताः गतासून् अगतासून् तत्र टु टैप्स् आफ् कर्मपद हू आर् गतासवः असु प्राणाः गतप्राणाः अगतप्राणाः बोत् लिविङ्ग् एण्ड् डेड् तेषां कृते आन् देम् तेषाम् उपरि तेषां कृते न अनुशोचन्ति डे डु नाट् ग्रीव् गतासून् अगतासून् द्वितीयाभक्ति बहुवचनम् च अव्ययम् पण्डिताः प्रथमाविभक्ति बहुवचनम् अनुशोचन्ति अगेन् अनु उपसर्गपूर्वक शुचिशोके धातुः लट् परस्मैपदि शोचति शोचतः शोचन्ति शोचसि शोतः शोचत शोचामि शोचावः शोचामः पण्डिताः न शोचन्ति अनुशोचन्ति। एवं तत्र वाक्यत्रयम् अस्ति, अस्माभिः दृष्टमस्ति, पश्यामः। प्रायशः पूर्वमेकवारं दृष्टमस्ति, एवं किञ्चित् शीघ्रं गच्छामि। त्वम् अशोच्यान् अन्वशोचः, प्रज्ञावादां च भाषते, पण्डिताः गतासु न गतासूंश्च न अनुशोचन्ति। अन्वशोचस्त्वम् अनु प्लस् अशोचः, एवमपि स्वीकर्तुं शक्यते। अन्वशोचः प्लस् त्वं विसर्गसन्धिः, तत्र प्रक्रियायां पश्यामश्चेत् तत्र अनेक सन्देहः भविष्यन्ति, परं केवलं पूर्णपदं स्वीकुर्मः। अन्वशोचः प्लस् त्वं विसर्गसन्धिः, प्रज्ञावादान् प्लश्च प्रज्ञावादांश्च, गतासून् प्लश्च गतासूंश्च अस्माभिः उक्तमस्ति, तत्र टेबल् कुर्मः इति, पत्र तत् न कृतमस्ति, क्षम्यताम्। आगामिकक्षायां तत् स्थापयित्वा आनयामि, तदा तत्र सागं किञ्चिदिव विस्तरेण गन्तुं शक्यते। नानुशोचन्ति सवर्णदीर्घसन्धिः, शोच्याः शोचितुं योग्याः शोच्याः अशोच्यान् यदि पश्यामश्चेत्, शोकं कर्तुं योग्याः शोचितुं योग्याः शोच्याः, न शोच्याः अशोच्याः तान् अशोच्यान् नैतत्पुरुषसमासः। प्रज्ञावादान् प्रज्ञापूर्वकाः वादाः प्रज्ञावादाः, प्रज्ञापूर्वकाः प्रज्ञासहिताः प्रज्ञा अधिकृताः, एवमपि स्वीकर्तुं शक्यते। मध्यपदलोपि तत्र अर्थानुगुणं पदस्य उपयोगं कर्तुं शक्यते। मध्यपदलोपि तत्पुरुषः, प्रज्ञापूर्वकवादाः तान् प्रज्ञावादान्, गतासून् गताः, असवः प्राणाः, गतासवः गताः असवः येभ्यः ते गतासवः, तान् द्वितीयाभक्तिबहुवचनं गतासून् बहुव्रीहिः, न गतासवः तान् अगतासून् नैर्भूव्रीः समासः अस्माभिः दृष्टमस्ति। विशेषभागं पश्यामः, एतावत्पर्यन्तम् अस्माभिः पूर्वकक्ष्यासु दृष्टमस्ति, इदानीं विशेषभागं किञ्चित् सावधानेन पश्यामः। प्रथमश्लोकः गीतायाः प्रथमश्लोकः, तत्र भाष्यकाराः वदन्ति, अस्थान स्नेह कारुण्य धर्माधर्मव्याकुलं पार्थं प्रपन्नं उद्दिश्य गीतावतरणं कृतम्। तत्र जनाः पृच्छन्ति, अनेकप्रश्नाः पृच्छन्ति, किमर्थम् उभयोः सेनयोः मध्ये एव तादृश तत्र कलहस्थले, तत्र कुरुक्षेत्रे एव किमर्थम् अर्जुनं प्रति गीतायाः उपदेशः कृतमस्ति, अपि च यदा सः शोकपूरितः तदा एव किमर्थं तत्र गीतोपदेशं कृतम्। एवं तत्र बहुप्रश्नानाम् उत्तरं कश्चित् भाष्यकारेण एकमेव श्लोकेन तत्र उत्तरम् उच्यते। आन्सर् इस् गिवन् इन् वन् सिङ्गल् सेण्टेन्स्, वै वाट् वेर् लाट् आफ् क्वशन्स् गेट् आन्सर्ड् बै वन् दिस् श्लोक विच् वास् गिवन् बै सम् भाष्यकार, ऐ डोण्ट् नो द नेम् आफ् द भाष्यकार, बट् अ वेरि वेरि नैस् श्लोक। अस्थान स्नेह कारुण्य धर्माधर्म व्याकुलम्, the sneha which arjuna got, the snihyatvam, the snigdhata which he got, the compassion what he got was asthana, was an untimely unplaced sneha. It was not a pitra sneha, putra sneha, vatsalya was not there. It was an untimely sneha when he had to do the karma, that kind of a sneha. So therefore, asthana sneha karunya, karunyam api asthanam asit, api cha kidrish avasthayam asit saha dharma dharma viyakulam, tat dharma dharma madhye, tat viveka rahitah, viveka rahityam asit, dharma dharma viyakulam partham, all these define partha, tadrisha partham, also did he himself go and tell partha? No, he didn't tell. Shishyasteham shadhi mam tvam prapannam, tadrsha prapannam, when he came to him and fell at his feet, tadrsha partham prapannam uddishya eva gitavataranam kritam. So when, what, where, why, how, all these questions will be answered by one single shloka. Asthana sneha karunya dharma dharma viyakulam partham prapannam uddishya gitavataranam kritam. एवं प्रथमांशः। द्वितीयांशः अस्माभिः किञ्चिदेव दृष्टमस्ति, पण्डिताः इत्युक्ते के इति, तत्र यदि पश्यामश्चेत् शङ्करः स्वीये भाष्ये अतीव सम्यक् उक्तवान् अस्ति, पण्डा आत्मविषया बुद्धिः पंडा इत्युक्ते आत्मविषया बुद्धिः येषां अस्ति ते एव पंडिताः। पंडा इत्युक्ते आत्मविषया बुद्धिः, तत्र केवलं सर्टिफिकेट तत्र परीक्षा लेखनेन जनाः पंडिताः न भविष्यन्ति, तत्र पंडा आत्मविषया बुद्धिः येषां अस्ति ते एव पंडिताः। यदि ते पंडिताः ते नानुशोचन्ति, यदि ते शोचन्ति तत्र तर्हि ते पंडिताः न। तावदेव पंडा आत्मविषया बुद्धिः येषां ते एव पंडिताः, पंडिताः नानुशोचन्ति। अपि च अन्यदेकं विशेषो वर्तते, अत्र पश्यामश्चेत् श्रीमद् रामायणे अपि तत्र यदा वालिवधः भविष्यति तदा तारा अतीव दुःखिता वर्तते। अस्माभिः गतकक्ष्यासु अनेककक्ष्यासु उक्तमस्ति, सुखजीवी वेदान्तविद्यां नैव प्राप्नोति सम्यक्, सः केवलं तत्र अर्थावगमनं करोति। सम्यक् न श्रूयते वा? इदानीं सम्यक् श्रूयते वा इति पश्यतु। प्रायशः तत्र तस्य आडियो मध्ये प्राब्लम् आसीत्। सम्यक् श्रूयते किल पद्मनाभन् मम अनु मेडम्? श्रूयते वा? भवतु, पश्यामः। तत्र यावत् सुधा भगिनी आगच्छति पश्यामः तावत्, तत्र यदा श्रीमद् रामायणे पश्यामश्चेत् वालिवधः भविष्यति तदा तारा अतीव दुःखिता वर्तते। अस्माभिः गतकक्ष्यासु अपि चित्रकेतोः उदाहरणं स्वीकृतमस्ति, परीक्षित् अस्य उदाहरणमपि अस्माभिः स्वीकृतमस्ति। यदा ते सुखजीविनः आसन् तदा तेषां प्रति जनाः अति भिन्नरीत्या वेदान्तोपदेशं कृतवन्तः, यद्यपि तत्र वेदान्तज्ञानं नाभूत्, केवलं तत्र पदार्थं, केवलं तत्र पदपरिचयः प्राप्तः। आत्मा इत्युक्ते किं, तत्र शरीरमित्युक्ते किं, तावदेव अर्थावगमनम् अभूत्, न तु तत्त्वावगमनम्। एवं तत्र यदा दुःखभरिताः, किञ्चित् दुःखिनः, किञ्चित् अनुभवस्थाः भवन्ति जनाः, तदा वेदान्तज्ञानं सम्यक् तत्र ज्ञानं भवति इति अस्माभिः दृष्टमस्ति श्रीमद् रामायणे। तत्र यदा वालिवधः भविष्यति, तारा दुःखिता वर्तते, तदा रामः हनुमन्तं वदति तत्र वेदान्तोपदेशं कुरु इति। तदा हनुमान् अयं श्लोकः, तदा हनुमान् तारां प्रति वदति किमिति, शोच्याशोचसि कं शोच्यं दीनं दीनानुकम्पसे कस्य कोवानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे। शोच्याशोचसि कं शोच्यं दीनं दीनानुकम्पसे कस्य कोवानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे। तत्र हनुमान् अयं श्लोकः वदति तारां प्रति, शोच्य अशोचसि कं शोच्यं दीनं दीनानुकम्पसे कस्य कोवानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे। अत्र वेदान्त वेदान्त पाठकाः, वेदान्त अन्तेवासिनः अपि अस्यां कक्षायां सन्ति, ते प्रायशः अतीव सम्यक् अस्य वर्णनां कुर्वन्ति। देहेऽस्मिन् बुद्बुदोपमे, इन् दिस् बबल् फार्म् आफ् बाडि, तत्र शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे। तत्र हनुमान् अयं श्लोकः वदति इन् रामायण, हि टेल्स् दीस् वर्ड्स्। अग्रे पश्यामश्चेत् तादृश हनुमानेव कपिध्वजत्वेन तत्र ध्वजरूपेण अत्र सः उपस्थितः अस्ति। अस्माभिः पूर्वमेव तत्र कथं हनुमान् कपिध्वजरूपेण सः रूपं स्वीकृतवान् इति अस्माभिः तत्र कथा पूर्वमेव दृष्टास्ति। सो इफ् यु सी द सेम् वाक्या विच् हनुमान् सेड्, विच् ही इस् सिटिङ्ग् आन् टाप्, हनुमान् इस् सिटिङ्ग् आन् द टाप् आफ् द चारियट्, दट् सेम् वाक्य, सेम् वर्ड्स्, सेम् तत्त्व, अगेन् कृष्ण, द सेम् रामा हू इस् इन् द फार्म् आफ् कृष्ण नौ, ही हेस् टेलिङ्ग् द सेम् वर्ड्स्। तत्र एवं तत्र विशेषांशं द्रष्टुं शक्यते। अगेन् सम्बडि आस्क्ड् हू इस् वन् पर्सन् हू नोस् द एक्साक्ट् मीनिङ्ग् आर् एक्साक्ट् हार्ट ऑफ श्रीमद् भगवद् गीता तदा त्यागराजः अपि स्व कीर्तनस्य कीर्तनायाम् एकाम् एकस्यां सः वदति गीतार्थमु संगीतानन्दमु संगीतार्थमु च उभयमपि हनुमानेव जानाति गीतार्थमु संगीतानन्दमु हनुमानेव जानाति इति त्यागराजः अपि वदति एवं तत्र पश्यामश्चेत् यत् कपिध्वजरूपेण स्थित हनुमतः श्रीमद् रामायणस्य वाक्यमासीत् तारा प्रति उपदेशः यदासीत् तदेव पदमपि तदेव स्वीकृत्य कृष्णः अर्जुनं प्रति वदति एवं तत्र अन्वयं कर्तुं शक्यते अपि च चतुर्थः विशेषांशं पश्यामश्चेत् 2.1 अस्मात् श्लोकादारभ्य 18.66 यदस्ति तादृशपर्यन्तं श्रीमद्भगवद्गीता गीतोपदेशः इति स्वीकर्तुं शक्यते अत्र तत्र कम्पेरिसन् कृतमस्ति स्टेज् यदि वयं पश्यामश्चेत् इफ् देर् इस् अ स्टेज् एण्ड् आन् द स्टेज् आक्टर्स् कीप् कमिङ्ग् एण्ड् गोयिङ्ग् फार् दोस् आक्टर्स् हू आर् नाट् आन् स्टेज् हू हेव् जस्ट् गान् बिहैण्ड् द सीन् डू वी ग्रीव् फार् देम् डू वी थिङ्क् that they are dead do we start grieving for them and do we start crying for them let us say there is a relative of us who is acting on the stage in one theater and he has his role he comes plays the role and he just goes backstage we are very very conscious that he is still there backstage therefore we do not grieve for him tara shokam na kurmah similarly when we get to know that the atma which is there has just taken a body come on stage it has finished its role it is going back and it is still there backstage will we ever grieve we will not have any grief simple logic simple concept but we keep forgetting this tavadeva asmabhi etad vismriyate so as stage is there similarly life actors come and go humans also come and go tavadeva this is where he starts the comparison between body and self sharirah shariram sorry तत्र दोषः अस्ति शरीरं शरीरी देहः देही यदस्ति एवं देही इस् द आत्मा देह इस् द बाडि शरीर इस् द बाडि शरीरी इस् द आत्मा एवं वाट् इस् रियल् वाट् इस् अन्रियल् वाट् इस् मार्टल् वाट् इस् इम्मार्टल् तदेव वी जस्ट् हेव् टु अण्डर्स्टाण्ड् दट् ही स्टार्ट्स् आफ् दो वेरि सिम्पल् श्लोक लैक् वी सा three sentences in the shloka arthavaganam ativa saralam param concept asmabhi swikrita swikaraniyam yatah foundation strong bhuyate chet agre upadeshah saralam bhavati evam we have to very simple know the foundation what is real what is mortal what is immortal unless this is known vayam sarve janimah it is not that we don't know that body will perish one day but when we see a perishing only then we really have to implement this knowledge until we implement this knowledge on field and we have really realized it then there is no mukti at all what is the definition of vidya one of the best definition of vidya ka vidya sa vidya ya vimuktaye that is knowledge which will take us towards vimukti so that unless we know the difference between real and unreal mortal immortal we will never get mukti salvation cannot be attained evam ashochyan anvashochah that is where he starts off with these are not fit to be shokafied tatra yete shokarahaha naiva they are not fit to be mourned upon that is where he starts with that starting itself he gives the difference between jivatma he gets the difference between atma and deha the mortal versus immortal evam ashochyan anvashochah anyadapi ek vartate we can in, again putting it in a different perspective tatra there have been lot of puranas and some dharma shastra grantha also wherein when we have shoka when we start crying and we have a phlegm or when we have tears to people who have departed skanda purane api panchatantre api uktamasti that those departed souls will have to eat and drink that tears and phlegm only so it is very wrong on our part to give them that which is why we later on wipe ourselves we have the aparakriya which is there and we do the tilatarpanadi karma we do that Also, if there are living souls, they have to be cared for and they have to be taken care of. You should not grieve for even living souls. That is also a wrong thing. Evam, we cannot grieve for living souls. We cannot grieve for departed souls. Then for whom should we grieve? There should be no grief. Very simple. Therefore, ashochyan anashochaha. All these, again, these concepts go towards the same word, ashochyan anvashochaha. If that part is very clear, that is again the summary of Bhagavad Gita eva. Ashochyan anvashochaha. So, what should be shoka, what should be shochyaha? Tatra shochyaha vastu eva nasti. Neither the body, which is anyways not there before, which is not going to be there tomorrow. Therefore, na shochyaha. Atma was there yesterday, will be there today, is there today, will be there tomorrow. Therefore, na shochyaha. Very simple concept, but very difficult to implement. Especially, bandhu varga samipe idha pashyamaha, then it is very difficult to implement. Evam ashochyan anvashochaha, prajna vadaniva bhashase, gatasu na gatasumcha, panditaha nanushochanti. Pandita people, they know this difference. When they know this difference, when they really know what is permanent, permanent is soul, it is always there. Therefore, no need to worry. Body, it was never there, a body, so then somebody asked, but I can see the body, I can touch the body, so then should I not grieve for it? I have lived with this body has taken care of me, should I not grieve for it, should I not cry for it, should I not at least express my feelings? Fine, you do it, but then by what are you expressing all those? By what are you crying? You are also a perishable body. Through the perishable body only you are crying for the perishable body. A perishable body can only see a perishable body. An Atma cannot see the body and a body cannot see the Atma. But we have to realize the Atma. Therefore, sorry, but while we know the concepts, we can understand that. Agre gachamaha, tatra evameva tatra pishtapeshnam bhavati nocheta, agre gachamaha, param yetadeva vishayaha, ashochyan anvashochaha, gatasun agatasumscha, panditaha na anushochanti. Again, if we take parallel to Samadhar Purana and see the importance or see parallel Upadesha, Srimad Bhagavate Edi Pashyamaschete, one of the smallest chapter is 12.52, Dvadasha Skande, Panchamadhyayaha, 12.5, Dvadasha Skande, Panchamadhyayaha, one of the smallest chapter, it has only 13 shlokas in it, and the chapter name is Brahmopadeshaha. Tatra Pashyamaschete, very Saraladitya Uktamasti, what is that Brahmopadesha has been done in a very simple concept. Since a few of you are Vedanta Para Vidyarthinaha, since a few of you are having Vedanta Shastra as one of your subjects, I will just read through it. You can always refer it later. Srimad Bhagavata Puranam, 12th Skanda, 5th Adhyaya. There, Shuka tells to Parikshit. He kind of summarizes after having explained all these. Dvadasha Skanda is the last Skanda. And Adhyaya 5, after this there are only 5-6 Adhyayas more. So he is trying to cover up and summarize. Tatra yadi pashyamaschete, ativa mandataya shlokam pathami kevalam shrunotu tena arthavagamanam bhavitum shakyate. Tvam tu rajanne marishyeti pashubuddhi mimam jahi. He rajanne pashubuddhim imam jahi na jataha pragabhutodya dehavatvam na nankshyasi. Na bhavishyasi bhutvatvam putra pautradi rupavane bija ankuravat deha dehe vyatireko yathanalaha. You would have had one full chapter on vyatireka. No, I am not getting into details on that. Swapne yatha shirascedam panchatva adhyatmanaha swayam yasmat pashyati dehasya tata atmahi ajomaraha. Very similar to this example of actors on stage, there is one more example which is generally given during Vedanta classes. There is one person who is undergoing lot of suffering. His forehead is sweating. He is experiencing that dukkha. His hands and all are trembling. Everything is happening. But when all these are happening when he is dreaming that he is being tortured and put into a prison by some people and they are hitting him. He is experiencing all these external things on the body even while he is dreaming. Suddenly somebody comes and wakes him up. He wakes up and realizes that is false and this is temporarily real. When he realizes that his dream is not real, he wakes up, but still he has had sweat, his hands and legs are trembling, he has undergone that experience which seems real to him. All those experiences may be real, but he realizes that that prison which was there was unreal. Very similarly, Swapne yatha shirascedam panchatvadhyatmana swayam yasmat pasyati dehasya tata atma hi ajaha amaraha. Apicha, he tells further, ghate binne yatha akasha akasha syad yatha pura. When the ghata akasha vada, all of you would have known already, when the pot is broken, the akasha which is there was there before, akasha is there now also, it is going to be there later also. Evam dehe mrite jivaha brahma sampadyate punaha. Manasajati vaidehan gunan karmani chatmanaha tanmanasajate maya tato jivasya samspurtihi. So these are some of the shlokas in that chapter. Whenever you get time, please go through that. 12th skandha panchamadhyaya Srimad Bhagavata Mahapuranam. There again he kind of very clearly explains in 4-5 shlokas the Brahmopadesha. Evam, once we know that, so he calls it as Pashubuddhi. Atma Buddhi is Pandita, is Atma Buddhi Vishayaha. If you think that people are dying, people are getting birth, then it is Pashu Buddhi. Again, a constant 2 or 3 questions which all of us have come always in our mind and which we should have and we should answer for ourselves are, question number 1, who am I? We get an answer here. Gatasu na gatasumschana anushochanti panditaha ashochyana anvashochaha. Aham tavat atma, shivoham shivoham, shivah kevaloham ityadi vachanaihi asmabhi shrutamasti. Aham tavat atma eva natu dehaha, aham dehi natu dehaha, shariri natu shariram. Evam asmabhi tasya uttarasya, we can start analyzing the answer. Instead of prodding over the question, we can start analyzing the answer from here. The second question will always be there, what is the purpose of my life? First question is, who am I? What is the purpose of my life? Why am I born? These are some questions which we always constantly have in our life and which we should get answers, and only when we complete these answers, our life also will be complete and will be purposeful. Evam tra brahma sakshatkaraha eva prayojanam ahameva param brahmanaha amshaha jivatma iti eva jnanam sampadaniyam asmabhi. Again, Yameva tatra ekadasha shlokam asmabhi drishtamasti ekavaram shlokam vadamaha agre dvadasha shlokam prati gachhamaha. Ashochyan anvashochastvam prajnyavadamscha bhashase gatasu unagatasumscha nanushochanti panditaha. Agre pashyamaha shlokam pathami ekavaram anuvadantu anantaram padachedam anvayam kartum shakyate. Natvevaham jatunasam natvam neme janadhipaha. Anuvadanto nachaiva na bhavishyamaha sarve vayam atavparam. Shlokam ekavaram patantu. Evameva arthastavat ativa saralo vartate. Meaning is very simple, but the philosophy concept is a little bit gadha. Interesting shloka to do anvaya. Try to do the anvaya. Purnataya anvayam kartum prayatnam kurvantu. Very very interesting shloka. Especially where to put which na tavade. So try to do the padachheda is very simple. No challenges in that. Anvayam, try to do it by ourselves. Let us try to do that. Where we place the na, we can get the correct meaning. Otherwise, we'll get the opposite meaning only. अन्वयं कर्तुं शक्यते वा पूर्णान्वयं यदि कर्तुं शक्यते चेत् पश्यन्तु नो चेत् तत्र केवल तत्र सरलान्वयं कुर्वन्तु जस्ट टेल द कर्तृकर्म क्रिया अहं न आसम वयं न भविष्यामः फर्स्ट एंड लास्ट करेक्ट अहं जातु न अस्मि करेक्ट आसम ओके दट इज ऑल्सो करेक्ट आसम अहम न आसम त्वम आ त्वम न आसीहि वेरी गुड गुड एक्टिविटी श्लोक फॉर अस लंग अस धातो हो लंगलकारा गुड एक्टिविटी श्लोक एक्चुअली त्वम नासी ही देन डैश न आसन उत्तम पुरुष और मध्यम पुरुष और प्रथम पुरुष एंड न इमे जनादिपाह आसन करेक्ट देन न चैव न भविष्यामः सर्वे वयम् अतः परम् वेरी गुड वी गॉट इट एब्सोल्युटली राइट सम्यक् आसीत् एकवारं इदानीं पश्यामः वेरी सिंपल अहम् जातु न आसम् न तु एव ही स्टार्ट्स ऑफ नत्वेव नत्वेव इज आल्सो ही इज बीन टेलिंग अबाउट अशोचम अन्वशोचम देन ही कंटिन्यूस व्हाट वी काइंड ऑफ डिस्कस्ड इन द विशेषांश भाग द सेम्स अहम् जातु न तु एव न आसम् सो फर्स्ट वन अहम न आसम फर्स्ट श्लोक फर्स्ट वाक्यम प्रथम वाक्यम तावत अहम न आसम ऐ डिड नॉट एग्जिस्ट त्वं तु न आसीहि यू आल्सो डिड नॉट एग्जिस्ट यू आर आल्सो नॉट देयर थर्ड वाक्य इमे जनादिपाः अपि नासन ते अपि नासन सो उत्तम पुरुष मध्यम पुरुष प्रथम पुरुष डन अतः परं सर्वे वयम् न भविष्यामः तत्र कट अस्ति क्षम्यताम् सर्वे वयम् ये वयम् सर्वे न भविष्यामः वी विल आल्सो नॉट बी देयर यत् अस्माभिः विशेषांश भागे दृष्टमस्ति वी डिड नॉट एग्जिस्ट वी आर नॉट एग्जिस्टिंग वी शल नॉट एग्जिस्ट यू डिड नॉट एग्जिस्ट ऐ डिड नॉट एग्जिस्ट तावदेव यदि देह परेण वयं पश्यामश्चेत् देह परम यदि वयं पश्यामश्चेत् न तु आत्मपर ज्ञानम यदि वयं न स्वीकुर्मश्चेत् देन वी डिड नॉट एग्जिस्ट ही इज ट्राइंग टू टॉक इवन आत्मपरमपि स्वीकर्तुं शक्यते दैट वी विल ऑलवेज बी देयर बट इन अ बॉडी फॉर्म इफ यू आर टॉकिंग वी नेवर एग्जिस्टेड नेवर विल वी ऑलवेज बी देयर तदेव अर्थावगमनम् अहम् जातु न तु एव न आसम् अहम् न आसम् लङ् उत्तम पुरुष एकवचन अहम् अस्मत् शब्द प्रथमाभक्ति एकवचनम् जातु अव्ययम् न अव्ययम् तु अव्ययम् एव अव्ययम् न अव्ययम् आसम् लङ् उत्तम पुरुष एकवचनम् सिमिलर्लि त्वम् युष्मत् शब्द तु न तु एव न सर्वम् अव्ययम् आसीः इज द मध्यम पुरुष आसीत आस्ताम आसन आसीहि आस्तम आस्त आस्व आस्म एवं त्वं न आसीहि इमे जनाधिपाः दीस किंग्स हु आर देयर इमे इदम शब्द मकारांत सर्वनाम पुल्लिंग प्रथमा बहुवचनम इमे जनाधिपाः न तु एव न आसन देवर आल्सो दे आल्सो डिड नॉट एग्जिस्ट एवं अतः परम इदानीं ఇతః ఊర్ధ్వం ఇతః పరం యది పశ్యామశ్చేత్ సర్వే వయం మీన్స్ ఆల్ ద త్రీ ఇన్క్లూడెడ్ యు ఐ అండ్ దీస్ పీపుల్ సర్వే వయం న భవిష్యామః వి విల్ నాట్ బి దేర్ వి విల్ నాట్ ఎగ్జిస్ట్ అట్ ఆల్ వి విల్ నాట్ బి సర్వైవ్డ్ దట్ ఇస్ యది ఆత్మపరం పశ్యామశ్చేత్ అగైన్ ఇట్ కమ్స్ బ్యాక్ టు ద సేమ్ కాన్సెప్ట్ సింపుల్ కాన్సెప్ట్ ఆత్మా విల్ ఆల్వేస్ బీ దేర్ దెర్ ఇస్ నో కాన్సెప్ట్ దట్ ఇట్ వాస్ దేర్ ఇట్ వాస్ నాట్ దేర్ ఇట్ వాస్ దేర్ ఇట్ వాస్ నాట్ దేర్ ఇట్ ఇస్ పర్మనెంట్ శరీర ఇట్ ఇస్ నెవర్ దేర్ ఇట్ ఇస్ ఓన్లీ అ బుద్బుదోపమే ఇట్ ఇస్ లైక్ అ బబుల్ ఇట్ ఇస్ లైక్ అ మృగతృష్ణిక అ మిరాజ్ మృగతృష్ణికావత్ భవిష్యతి అయం శరీరం బ్రహ్మసత్య జగన్మిథ్య సేమ్ కాన్సెప్ట్ ఇన్ ద మిథ్యా జగత్ హౌ కెన్ వి టెల్ దట్ ఇట్ వాస్ దేర్ ఇట్ ఇస్ నాట్ దేర్ ఇట్ ఇస్ గోయింగ్ టు బీ దేర్ ఫర్ సమ్ టైమ్ ఏమేవ యది పశ్యామశ్చేత్ దెన్ సర్వే వయం అతః పరం న భవిష్యామః ఇది సహ వదతి భవిష్యామః భూసత్తాయాం భాదిగణీయః లృట్ లకారః ఉత్తమపురుష బహువచనం సర్వే వయం సర్వే న భవిష్యామః ఉత్తమపురుష బహువచనం సింపుల్ కాన్సెప్ట్ అగైన్ ఎక్స్ప్లెయినింగ్ ఇట్ విల్ ఓన్లీ కన్ఫ్యూజస్ మోర్ అహం జాతు న ఆసం త్వం తు న ఆసీహి ఇమే జనాధిపాహ న ఆసన్ అతః పరం వయం సర్వే న చ భవిష్యామః విచ్ మీన్స్ అహం సర్వదా ఆసం త్వం సర్వదా ఆసీహి ఏతే రాజానః అపి సర్వదా ఆసన్ ఇతః పరమపి వయం సర్వే సర్వదా భవిష్యామః ఆత్మా స్థిరః ఇతి వయం సర్వే సర్వదా అవశ్యం భవామః ఇత్యేవ అభిప్రాయః ద తాత్పర్యం టేక్స్ ఇట్ ఇన్ టు ద పాజిటివ్ ఆత్మపర విద్య ద శ్లోక టాక్స్ నెగటివ్లీ అబౌట్ ద దేహపర విద్య ఏవం పశ్యామః సంధిభాగం పశ్యామః త్వేవాహం తు ప్లస్ ఏవ అహం యణ్ సవర్ణ దీర్ఘ నాసం నేమే చైవ దీర్ఘ గుణ వృద్ధి సింపుల్ సంధీస్ నాట్ డీలింగ్ మచ్ ఆన్ దట్ జనాధిపాహ జనాధిపాహ జనానాం అధిపాహ అధిపాలయంతి ఇతి అధిపాహ జనానాం అధిపాహ దోస్ హూ రూల్ ఓవర్ ద పీపుల్ జనానాం ఉపరి అధిపాహ ఆధిపత్యం కుర్వంతి తే జనాధిపాహ షష్ఠీ తత్పురుష సమాసః ఏవం అత్ర పశ్యామశ్చేత్ తత్ర అతీవ సమ్యక్ తత్ర బాడీ వెసెస్ హీ టేక్స్ ఆన్ టు ద నెక్స్ట్ స్టెప్ ఫస్ట్ స్టెప్ అశోచ్యాన్ అనశోచః హీ టెల్స్ యు ఆర్ గ్రీవింగ్ విచ్ ఇస్ నాట్ ఫిట్ టు బీ గ్రీవ్డ్ ఫార్ వై షుడ్ ఐ నాట్ గ్రీవ్ ఇఫ్ సంబడి ఆస్ ద క్వశ్చన్ దెన్ ద సెకండ్ శ్లోక శ్లోక నంబర్ 12 కమ్స్ దట్ దిస్ ఆత్మా ఈజ్ ఆల్వేస్ దేర్ పర్మనెంట్ బాడీ ఈజ్ పెరిషబుల్ అశాశ్వతం ఆత్మా శాశ్వతం దేర్ ఫోర్ ఎనీ ఆఫ్ దీస్ ఇఫ్ యూ గ్రీవ్ ఫార్ ఇట్ ఈస్ యూస్లెస్ దట్ విచ్ ఇస్ ఆల్వేస్ గోయింగ్ టు బీ దేర్ వై షుడ్ యూ గ్రీవ్ ఇట్ విల్ ఆల్వేస్ బీ దేర్ సో నో గ్రీఫ్ దట్ విచ్ ఇస్ నాట్ గోయింగ్ టు బీ దేర్ పర్మనెంట్లీ ఇట్ ఇస్ ఓన్లీ టెంపరలీ దేర్ వై షుడ్ యూ ఎంజాయ్ ఆర్ వై షుడ్ యూ గ్రీవ్ ఫర్ ఇట్ సో నో వరీ ఫర్ ఇట్ ఏవం సెకండ్ స్టెప్ మధ్య గచ్చతి అగ్రే దెన్ హీ దెన్ స్టార్ట్స్ ఆఫ్ విత్ ద నెక్స్ట్ శ్లోక 13 శ్లోక అత్ర నోట్స్ నాస్తి ఏవం కేవలం పశ్యామః తత్ర శ్లోకమేకవారం వదామః అపి చ పశ్యామః యది కర్తృకర్మక్రియాం కర్తుం శక్యతే వా ఇతి వారం పశ్యామః దేహినోస్మిన్ యథా దేహే కౌమారం యౌవనం జరా తథా దేహాంతర ప్రాప్తిః ధీరస్తత్ర న ముహ్యతి సో ద థర్డ్ స్టెప్ ఇదానీం తృతీయ స్తరః థర్డ్ స్టెప్ ద థర్డ్ శ్లోక సో హీ హస్ టోల్డ్ డు నాట్ గ్రీవ్ వై డు నాట్ గ్రీవ్ బికాస్ దే బోత్ ఆర్ డిఫరెంట్ అండ్ బోత్ బై గ్రీవింగ్ దెర్ ఇస్ నో యూస్ వై దెర్ ఇస్ నో యూస్ ఇఫ్ సంబడి ఆస్క్ నెక్స్ట్ బికాస్ దేహ దేహి దేహ టేక్స్ కౌమార యౌవన జర దేహాంతర ప్రాప్తి బట్ దేహి డస్ నాట్ హ్యావ్ ఎనీ ఆఫ్ దీస్ దేర్ ఫోర్ నో యూస్ ఆఫ్ గ్రీవింగ్ అట్ ఆల్ బాస్ సో దిస్ ఇస్ వై ఏవం ఈచ్ ఆఫ్ దీస్ శ్లోకాస్ ఇట్ ఇస్ సీ నెక్స్ట్ టు నెక్స్ట్ ఇట్ ఈస్ అ సపోర్టింగ్ శ్లోక టు ద ప్రీవియస్ శ్లోక ఏవం పశ్యామః శ్లోక నంబర్ 13 ఏకవారం పఠంతు తత్ర పదచ్ఛేదం కుర్వంతు అన్వయమపి ద్రష్టుం శక్యతే चिन्तयित्वा आगन्तुं शक्यते. तत्र एतद् विद्या यदस्ति तत्र देहः कौमारं यौवनं जरा गच्छति, अनन्तरं तत्र देही यदस्ति तत्र धीरः न मुह्यति इति या विद्या अस्ति. धीरः न मुह्यति, समीचीनं. धीरः न मुह्यति, या विद्या अस्ति धीरः इति ज्ञानवान्. धीरस्तत्र न मुह्यति, धीरः इस् नाट् अ ब्रेव् पर्सन् हियर्, पण्डितः ज्ञानवान् यः अस्ति सः धीरः, सः न मुह्यति इति विद्या या अस्ति दट् इस् काल्ड् एस् प्रत्यभिज्ञा. प्रत्यभिज्ञा विद्या विच् इस् देर्, मोस्ट् आफ् यू आर् वेदान्त स्टूडेण्ट्स्, यू विड् नो प्रत्यभिज्ञा विद्या स्टार्ट्स् फ्रम् हियर्. सो वि विल् सी दट् इन् द कमिङ्ग् क्लासस्. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ. मम पाहि गुरो. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ. मम पाहि गुरो. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरो गुरोर्मतिरस्ति गुरौ. मम पाहि गुरो. सर्वेभ्यः राम राम राम. यदि तत्र एनी फीडबैक सजेशन्स इम्प्रूवमेंट्स प्लीज मेल अस. धन्यवादाः. आगामी कक्षायां गुरुवासरे पुनर्मिलामः. तावत्पर्यन्तं सर्वेभ्यः शंभवतु, शंभवन्तु, शिवास्ते सन्तु, पन्थानः.